ततप्रश्रवणं शैलं ते गत्वा चित्रगाननं प्रणम्य शिरसा रामं लक्ष्मणं च महाबलं युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च प्रवृत्तिमथ सीतायाः प्रवक्तुमुपजक्रमुत रावणान्तःपुरे रोधं राक्षसेभिश्च तर्जनं रामे समनुरागं च यश्चायं समयः कृतः एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ वैदेहीम् अक्षतां श्रुत्वा रामस्तोत्तरमब्रवीत् त्वसीता वर्तते देवि कथञ्च मयि वर्तते एतन्मे सर्वमाख्यात वैदेहीं प्रतिवानराः रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ चोदयन्ति हनुमन्तं सीतावृत्तान्तकोविदं श्रुत्वा ते वचनं तेषां हनुमान् मारुतात्मजः प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा समुद्रं लङ्घयित्वाहं शतयोजनमायतम् अगच्छं जानकीं सीतां मार्गमाणोऽधिदृक्षया तत्र लङ्केति नगरे रावणस्य दुरात्मनः दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे तत्र सीता मया दृष्टा रावणान्तःपुरे सति सन्न्यस्य त्वयि जीवन्ति रामा राममनोरथम् दृष्टा मे राक्षसी मध्ये तर्जमाना मुहुर्मुहुः राक्षसेभिर्विरूपाभिः रक्षिता प्रमदा वने दुःखमापद्यते देवी तव दुःखोचिता सति रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता एकवेणीधरादीना त्वयि चिन्तापरायणा अधश्शय्या विवर्णाङ्गी पद्मनीव हिमागमे रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया देवी कथञ्चित् काकुत्स्थ तुन्मरा मार्गिता मया इक्ष्वाकुवंशविख्यातिम् शनैः कीर्तयता नघा सा मया नरशार्दूल विश्वासमुपबाधिता ततः सम्भाषिता देवी सर्वमर्थञ्च दर्शिता रामसुग्रीवसख्यञ्च श्रुत्वा प्रीतिमुपागता नियतः समुदाचारः भक्तिश्चास्यास्तथा त्वयि एवं मया महाभागा दृष्टा जनकनन्दिनी उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभा अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके चित्रकूटे महाप्राज्ञ पायसं प्रति राघव विज्ञाप्यश्च नरव्याघ्रः रामो वायुसुतत्वया अखिले नेहयद्दृष्टम् इति मामाह जानकी अयं चास्मै प्रदातव्यः यत्नात् सुपरिरक्षितः ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः एष चूडामणिः श्रीमान् मया सुपरिरक्षितः मनःशिलायास्तिलकः गण्डपार्श्वे निवेशितः त्वया प्रष्टे तिलके तज्ञः स्मर्तुमर्हसि एष निर्यातितः श्रीमान् मया ते वारिसम्भवः एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ जीवितं धारयिष्यामि मासं दशरथात्मजा ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता इति मामब्रवीत् सीता कृशाङ्गी वरवर्णिनी रावणान्तःपुरे रुद्धा मृगीवोद्भुल्लोचना एतदेव ममाख्यातं सर्वं राघव यद्यथा सर्वथा सागरजले सन्तार प्रविधीयतां तौ जाताश्वासो राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय देव्या चाख्यातं सर्वमेवानुभूर्व्याति वाचा संपूर्णं वायुपुत्र प्रशंसा इत्याशे श्रीमद्रामायणे वाल्मीकीयादिकाव्ये चतुर्दश सहस्रिकायां संहितायां सुन्दरकाण्डे पञ्चषष्टितमः सर्गः।